वयं भोजचम्पु रामायणस्थं सुन्दरकाण्डं पश्यामः.
वीडियो पठने वा?
तत्र सुन्दरकाण्डं किमर्थं चितम् इत्युक्ते तत्र किमपि वैशिष्ट्यं नास्ति. बालकाण्डं किमर्थं न इति अपि प्रश्नः उदेति मनसि. एकं तु सुन्दरकाण्डं वाल्मीकिरामायणे सर्वैः पठ्यते प्रायः गृहेषु, अतः परिचितविषयः, अत्यन्तं परिचितः भवति विषयः. तद् वयं सुन्दरकाण्डं यदा भोजचम्पां पठामः तत् युगपत् वाल्मीकिरामायणस्य सुन्दरकाण्डमपि स्वाध्यायरूपेण पठामः. अहं वर्गस्य अन्ते वदिष्यामि यत् वयं पठामः. युगपत् तद् पठित्वा वाल्मीकिरामायणतः सरलतया विषयम् अवगन्तुं शक्नुमः. भोजचम्पां विषयः समानः विषयः एव, किन्तु भाषा किञ्चित् प्रौढाभाषा भवति. अवगमने साहाय्यं भवति यदि वयं वाल्मीकिरामायणस्य सुन्दरकाण्डं युगपत् अपि पठामः. एतद् एतस्य रसास्वादः पुनः अन्य एक साहित्यविधा काव्यस्य परिचयः अपि भवति. इदानीं प्रार्थनया आरम्भं कुर्मः. सरस्वतीश्लोकं ध्यानश्लोकं च. सरस्वति नमस्तुभ्यं कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा. ध्यायं संस्कृतं सम्यक्, संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्. संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्. आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्. वन्दे संस्कृतमातरम्. नमस्ते. आदौ चम्पू इति वदामः. चम्पूः नाम किं? चम्पूः इत्युक्ते गद्यपद्यमयी चम्पूः इति उच्यते. गद्यपद्यमयं काव्यं, गद्यपद्यमिश्रितं काव्यम्. वस्तुतः वयं सामान्यतया चिन्तयामः छन्दोबद्धम् अस्ति तदेव काव्यं, तथा न. वाङ्मये सर्वमपि काव्यं, गद्यमपि काव्यं, वाक्यमपि काव्यं, सूत्रमपि काव्यं, सर्वमपि काव्यमेव. साहित्यं किञ्चित् पठितवतां तु एतद् सरलज्ञानं भवत्येव. अन्येषामपि कोविदपर्यन्तं ये पठितवन्तः तेषामपि अस्मिन् विषये परिचयः तु भवति एव. काव्यम् इत्युक्ते साहित्यं, वाङ्मयं. तद् द्विधा विभज्य पण्डिताः शास्त्रज्ञाः वदन्ति. किं वदन्ति? श्रव्यकाव्यं च. नाटकादिकं द्रष्टुं योग्यं दृश्यं. गद्यं, पद्यं, चम्पूः इत्यादि श्रव्यं, श्रोतुं योग्यं. चम्पूः अपि श्रव्यकाव्यमेव. नाटके अपि चम्पूः भवति, गद्यं पद्यं च मिश्रितशैल्या भवति, किन्तु तद् दृश्यकाव्यं भवति. एतद् श्रव्यकाव्यं, श्रोतुं योग्यम् अथवा पठितुं योग्यम्. अनन्तरं मिश्रितमस्ति, मिश्रितत्वमस्ति गद्यपद्ययोः इति कारणेन अत्र सरसता भवति पठने, नीरसता न भवति. पद्यानामेव पठनम् अथवा दीर्घगद्यानां गद्यभागानां पठनम् इति न भवेत्. अतः सरसता भवति. पुनः चम्पूकाव्यस्य एकं वैशिष्ट्यमस्ति, अन्यत्र महाकाव्ये एकस्मिन् सर्गे तादृशः को यथा तथा छन्दसां परिवर्तनं मध्ये गद्यभागः भवति। पूर्वतनश्लोकः अनन्तरम् उत्तरश्लोकयोः द्वयोः सम्बन्धः मध्ये गद्यभागेन सूच्यते। एकः श्लोकः भवति, तदनन्तरम् अपरः श्लोकः भवति, तयोः मध्ये गद्यभागः भवति। सः गद्यभागः सेतुः इव कार्यं करोति, पूर्वतनश्लोकस्य च अपर अनन्तरं यः श्लोकः भवति तस्य। एवं चम्प्वाः लघुपरिचयः अस्तु। चम्पूः इति ऊकारान्त स्त्रीलिङ्गशब्दः, वधूः इव चम्पूः। पुनः कविपरिचयः, कविः भोजराजः, भोजदेवः इति उच्यते, भोजराजः स्वयं यद्यपि महाराजः तथापि पण्डितः अपि, न केवलं काव्यज्ञः रसज्ञः सहृदयः, सः काव्यशास्त्रज्ञः अपि, काव्यशास्त्रकारः। कथाभरणम् इति काव्यशास्त्रमपि रचितवान् अस्ति। भोजचम्पू तस्य अत्यन्तं प्रसिद्धं काव्यं भोजदेवः। धारानगरस्य सः प्रदेशस्य राजा, धारानगरं तस्य राजधानी भवति। केचन वदन्ति विदर्भदेशस्य राजा इति, किन्तु ऐतिहासिकज्ञाः मालव देशस्य अधिपतिः इति तं वदन्ति। भोजदेवः कदा आसीत् इत्युक्ते एकादशे शतके, 11th century मध्ये आसीत्। पण्डितानाम् आश्रयदाता अपि आसीत् इति श्रूयते तस्य विषये। सरस्वतीकण्ठाभरणं, शृङ्गारप्रकाशः इति शास्त्रग्रन्थानां रचनां कृतवान्, शब्दानुशासनम् इत्यपि। पुनः चम्पूरामायणं तु तस्य अत्यन्तं प्रसिद्धम्। अत्र कति काण्डानि सन्ति इत्युक्ते 5, बालकाण्डतः युद्धकाण्डपर्यन्त 5 काण्डेषु रामायणकथा अत्र निरूपिता। काव्यस्य वैशिष्ट्यं किम् इत्युक्ते ललितमनोहरशैली, कोमलपदविन्यासः, सुन्दर अलङ्काराणां प्रयोगः इत्यादिकं भवति। बहूनि व्याख्यानानि अपि चम्पूग्रन्थस्य उपलभ्यते। पुनः बहुविश्वविद्यालयेषु स्नातकस्नातकोत्तर डिग्री पोस्ट् ग्राजुयेट् कोर्सस् मध्ये चम्पूरामायणस्य बालकाण्डं वा सुन्दरकाण्डं वा पठ्यते। तदेव प्रमाणं यत् एतद् अत्यन्तं प्रसिद्धम् इति। साक्षात् काव्यं पश्यामः। काण्डम् इति प्रथमश्लोकः। बहुनां हस्ते टेक्स्ट् न स्यात् अद्य, निवेदिता भगिनी दर्शयति। अनन्तरं यथा शीघ्रं यदि एकं पुस्तकं क्रियते चेत् सम्यक् भवति। जनानां तु तत्र वेदान्त बुक् हौस् मध्ये लभ्यते, तत्र चेन्नै चेत् जयलक्ष्मी इण्डोलाजिकल् बुक् हौस् मध्ये प्राप्यते। एतत् सुन्दरकाण्डं पृथक् अपि प्राप्यते, सम्पूर्णमपि प्राप्यते इति मन्ये। अस्तु, श्लोकः अहं पठामि, कृपया अनुवदन्तु। ततो हनुमान् दशकण्ठनीताम् विचेतुं पथिचारणानाम् इन्द्रशैलस्य खगेन्द्रवेगः प्रस्तादुदस्तात् प्रथमान वेगः अस्य पदच्छेदः ततः हनुमान् दशकण्ठनीतां सीतां विचेतुं पथि चारणानां महेन्द्रशैलस्य खगेन्द्रवेगः उदस्थात् प्रथमान वेगः संयोगवशात् पश्यामः चेत् रामायणस्य वाल्मीकिरामायणस्य सुन्दरकाण्डस्य प्रथमः श्लोकः अपि एतत् सदृशमेव भवति. कथं भवति इत्युक्ते ततो रावणनीताया सीताया शत्रुकर्षणः एष पदम् अन्वेष्टुं पथि इति भवति. बहूनि पदानि अपि पदसाम्यमपि अस्ति अर्थसाम्यमपि अस्ति. तथैव अत्रापि तद् तस्य अनुकरणमेव किल एषः ग्रन्थः. अतः तद् स्मृत्वा तत्सदृशमेव प्रथमश्लोकं रचितवान् अस्ति कविः भोजः. अस्तु, अत्र अत्र आकाङ्क्षाशैल्या अन्वयं पश्यामः. अत्र क्रियापदम् अन्वेष्टव्यं प्रथमम्. उदस्थात् इति द्वितीयपङ्क्तौ प्रस्थादुदस्थात् प्रथमानवेगः इति अस्ति. तत्र उदस्थात् इति पदं दृश्यते खलु. उदस्थात् इत्युक्ते उत्थितवान्, अद्यतन लुङ् लकारः यथा अभूत् इति. प्रस्थात् उदस्थात् उत् अस्थात् इति उदस्थात्. उत् इति उपसर्गपूर्वकम्. अस्तु, उदस्थात् उत्थितवान्. कः उत्थितवान्? हनुमान्. हनुमान् इति पदमेव प्रयुक्तमस्ति काव्ये. हनुमान् कीदृशः? हनुमान् खगेन्द्रवेगः. हनुमान् विभक्त्यां कानि पदानि सन्ति इति द्रष्टव्यम्. खगेन्द्रवेगः हनुमान्. पुनः कीदृशः हनुमान्? प्रथमानवेगः हनुमान्. किं कर्तुं सः उदस्थात्? विचेतुम्. विचेतुम् उदस्थात्. विचेतुम् इत्युक्ते अन्वेष्टुम्. विचिनोति इत्युक्ते अन्विष्यति. विचेतुम् अन्वेष्टुम् अन्वेषणं कर्तुम् उदस्थात्. कां विचेतुम्? सीताम्. कीदृशीं सीतां विचेतुम्? दशकण्ठनीतां सीताम्. दशकण्ठः रावणः, तेन नीता अपहृता, तां सीतां विचेतुम्. अस्तु, सः कुतः उदस्थात्? कुतः उत्थितवान्? प्रस्थात्. प्रस्थः इत्युक्ते महेन्द्रशैलस्य शिखरात् इति अर्थः. कस्य प्रस्थात्? महेन्द्रशैलस्य. अस्तु, सः कूर्दनं कृतवान् किल शैलात्, उदस्थात्. चारणानां मार्गे. चारणाः एते आकाशमार्गेण चरन्ति, अतः तेषां मार्गे इत्युक्ते आकाशमार्गे इति अर्थः. अतः एतस्य अन्वयः एवं भवति. उदस्थात् इति क्रियापदं स्वीकृत्य वयम् अन्ते स्थापयामः चेत् ततः. अत्र ततः इति पदेन किं सूचितम् इत्युक्ते पूर्वं स्मर्तव्यम्. सुन्दरकाण्डात् पूर्वं किमस्ति? किष्किन्धाकाण्डम् अन्य. तत्र हनुमान् सर्वे वानराः अन्विष्यन्तः इतस्ततः गच्छन्ति सीता देवी कुत्र स्यात् इति. तदा सम्पातिः इति एकः मिलितः भवति, सः गरुडाग्रजः. गरुडाग्रजः इति न, तस्य नाम किं, वने यः जटायुपक्षः किं भगिनि? सः
जटायोः
अग्रजः, सत्यं सहोदरः सम्पातिः, तं मिलित्वा तेन ज्ञायते केन मार्गेण गन्तव्यं कुत्र गन्तव्यम् इति. अस्य सङ्केतं प्राप्य पुनः कः गच्छेत् इति इदानीं निश्चेतव्यं. कुत्र गन्तव्यम् इति ज्ञातं, कः गच्छेत्, तर्हि जाम्बवान् हनुमन्तं प्रेरयति, तस्य बलं स्मारयित्वा प्रेरयति. ततः हनुमान् अस्तु अहं गच्छामि, समुद्रम् उल्लङ्घ्य गच्छामि इति निर्णयं स्वीकरोति किल, ततः इति पदं तत् सूचयति. ततः हनुमान् उदस्थात् कूर्दितवान्. कीदृशः हनुमान्? खगेन्द्रवेगः. खगानाम् इन्द्रः कः? गरुडः. खगेन्द्रस्य वेगः इव यस्य वेगः, गरुडवेगतुल्य तस्य वेगः. पुनः प्रथमानवेगः इत्युक्ते प्रसिद्धवेगः इति अपि अर्थः भवति. वर्धमानवेगः खगेन्द्रवेगः, प्रथमानवेगः वर्धमानवेगः हनुमान्. दशकण्ठनीतां सीतां, रावणापहृतां सीताम् अन्वेष्टुं महेन्द्रशैलस्य महेन्द्रगिरेः प्रस्थात् शिखरात् चारणानां पथि उदस्थात् आकाशमार्गे उत्थितवान्. चारणानां पथि, चारणाः गन्धर्वाः सिद्धाः इति एते देवयोनिविशेषाः, डेमिगाड्स् इति वदन्ति. ते यत्र सञ्चरन्ति सः मार्गः आकाशमार्गः, तस्मिन् मार्गे हनुमान् उदस्थात् उत्थितवान् इति अर्थः. अस्तु, अत्र पदविवरणं, समासः इत्यादिकं यतः नोट्स् मध्ये तत्सर्वं भवति. वयं भगिनी यदा सैट् मध्ये अप्लोड् करोति तदा वयं नोट्स् द्रष्टुं शक्नुमः. खगेन्द्रवेगः, खगानाम् इन्द्रः खगेन्द्रः, खगेन्द्रस्य वेगः इव वेगः यस्य, खगेन्द्रवेगः. प्रथमान इति पदं प्रथते
शब्दः नास्ति.
शब्दः नास्ति वा?
अस्ति, इदानीम् अस्ति,
श्रूयते. द्वितीय अर्थः अस्ति वर्धमानवेगः, इन्क्रीज़् इति अपि अर्थः, एधमानवेगः. अतः प्रथमानवेगः, यदा प्लवनस्य आरम्भं करोति वेगः क्रमशः वर्धते तस्य, यथा पक्षिणः अपि क्रमशः वेगः वर्धते किल, तथा हनुमान्. हनुमान् इति नामकरणं कथं? हनूः अस्य अस्ति इति. हनु इत्युक्ते एषः, जा इति वयं सर्वे जानीमः. इन्द्रः यदा प्रहारं कृतवान्, प्रति यदा उत्प्लुतवान् बालकः, तदा इन्द्रस्य प्रहारेण, वज्रप्रहारेण अत्र तस्य हनुवोः आघातः अभवत्. तर्हि तद्विधा विभज्य बहु सम्यक् दृश्यते. अतः हनु अस्य स्तः इति हनुमान्. एतानि पदानि एव. दशकण्ठः वयं जानीमः, दशकण्ठाः यस्य, गीता विचेतुम् अन्वेष्टुं. चारणाः इति नामकरणं कथम् अभवत् इत्युक्ते, प्रचारयति नृत्यगीतादिविद्यां तज्जन्यकीर्तिं वा इति चारणः. सामान्यतया गन्धर्वाः चारणाः विद्याधराः एते सर्वे वीणापाणयः भवन्ति, गीतं गीतगाने कुशलाः भवन्ति, अतः प्रचारयति नृत्यगीतादि विद्याम् इति चारणाः इति तेषां नाम इति हलायुधकोशे अस्ति. अस्तु, इदानीं यथा चम्पूग्रन्थः इति कारणेन एकः श्लोकः, अनन्तरं गद्यभागः. अयं गद्यभागः सुदीर्घः, वस्तुतः एकविषयः एव, किन्तु एक अनुच्छेदात्मकः आकारः. एतस्य पठनं यदि पदच्छेदं किञ्चित् कृत्वा पठ्यते चेत् इतोपि सुकरं भवति. इदानीं तदानीम् इति आरभ्य अस्ति खलु, तस्य पदच्छेदः अस्ति. अहं पठामि सकृत्, वयं किं कुर्मः, अहं पठामि, भवन्तः अनुवदन्तु, तेन ज्ञायते कविः अत्र किं वदति, तदनन्तरम् अर्थविवरणं द्रक्ष्यामः. टेक्स्ट् अस्ति किल भगिनि, गद्यभागः
पश्यामः.
अस्तु, साक्षात् पदच्छेदभागं स्वीकुर्मः, तद् पठामः चेत् अनन्तरं पदच्छेदभागम् अत्र पठामः, एतद् पठित्वा पुनः तद् गद्यभागं पठ्यते चेत् भागः पठ्यते चेत् इतोपि सारल्यं भवति. अहं वदामि, कृपया अनुवदन्तु, म्यूट् मध्ये भवितुमर्हति, स्वे सर्वे अपि पठन्तु. तदानीं उदन्वदुल्लङ्घन सोढुम् अक्षमः, क्ष्माभृत् इति भवति तद्, क्षमा इति अस्ति चेत् क्षम्यते, क्षम्यताम्, क्ष्माभृत्कोशः, निश्चेतरनिर्झरौघतया, निःसरन्निर्झरौघतया, निरन्तरनिष्पतद्बाष्पवर्षः इव, इतस्ततः विततजीमूतवृन्दतया, पारिप्लव शिथिलधम्मिल्लः इव, संत्रस्यमान कुञ्जरयूथतया, संजातश्वयतुः इव साध्वसधावमानः खुरकोटिपाटनोद्धूत धातुधूलीपालीपाटलित
विकटकटकतया
क्षरितः तत्क्षणप्रबुद्धकण्ठीरव मुखरितकन्दरतया कृताक्रन्दः इव परिसरगह्वरनिबिरीस ृतसरीसृपतयातान्त्रमालः इव
निर्गलितान्त्रमालः इव
घूर्णमानतरुविटपकोटि
घूर्णमानतरुविटपकोटि
ताडितजलदवृन्द
ताडितजलदवृन्द
स्यन्दित
स्यन्दित
समुपजातस्वेदः इव
समुपजातस्वेदः इव
स्वेद इव
फटिकतटोपलपतन
फटिकतटदलोपन
दलितकीचक
दलितकीचक
मूर्छत्
सुषिरसमूर्छत्
पवनभूत्कार
पवनभूत्कार
परिपूरितगगनतया
परिपूरितगगनतया
प्रवर्धमानोर्ध्वश्वासः इव
प्रवर्धमानोर्ध्वश्वासः इव
अविषयं दौस्थ्यमभजत
वचसाम् अविषयं दौस्त्यमभजत
वस्तुतः दीर्घगद्यभागः अस्ति तत्र किं वा उच्यते कविना बहु अलङ्कारान् वस्तुतः सः वदति पर्वतः दुःस्थितिं प्राप्तवान् केन कारणेन हनुमान् यदा उत्थितवान् पर्वततः तदा सः सम्यक् नुदति किल प्रेस् करोति तेन किं भवति पर्वतस्य दुःस्थितिः भवति दुर्दशा भवति पाटिताः भवन्ति गजाः इतस्ततः धावन्ति शिलाः पतन्ति निर्झराणां जलपातः बहु वेगेन पतति एतत् सर्वं भवति पर्वते यद्यदस्ति तस्य तत्र किमपि चलनम् अथवा तत्र विकृतिः भवति तेन पर्वतस्य दुःस्थितिः दौस्थ्यम् अभजत इति एव तद् तस्य वर्णनं भवति कीदृशम् इति कविः अत्र पर्वतम् एकं मनुष्यमिव उत्प्रेक्षते सः उत्प्रेक्ष्य सः चिन्तयति यदा निर्झराः पतन्ति चेत् पर्वतः रोदनं करोति बाष्पवारि पतति इति पुनः पर्वतस्य शिलाः पतन्ति चेत् तेन किं भवति एकैकस्य पर्वतस्य एकैकपरिवर्तनमपि तद् पर्वतं कथं सः मनुष्यमिव उत्प्रेक्ष्य पश्यति इति एव तत्र कवेः अत्र कौशलम् अस्ति वयं द्रक्ष्यामः एतस्य अपि अन्वयं कृत्वा पश्यामः प्रथमं यथा क्रिय श्लोके तथा अपि पद्ये तथापि गद्ये किम् इति ज्ञातव्यम् अन्ते अस्ति अभजत अभजत इत्युक्ते प्राप्तवान् कः अभजत कः इति कर्तृपदम् आरम्भे द्वितीयपङ्क्तौ अस्ति एषः इति अस्ति क्ष्माभृत् क्ष्मा इत्युक्ते पृथिवी भृत् इत्युक्ते बिभ्रति धारयति पृथिवीं धारयति इति कः पर्वतः भूधरः इति पर्वतस्य नाम वयं श्रुतवन्तः स्याम क्ष्माभृत् भूधरः अत्र कः सः महेन्द्रशैलः सः महेन्द्रशैलः क्ष्माभृत् काम् अभजत काम् दशां प्राप्तवान् दौस्थ्यं प्राप्तवान् दुरवस्थां प्राप्तवान् दुःस्थितिं प्राप्तवान् दुःस्थितेः भावः ಹನುಮಾನ್ ತದಾನೀಂ ತಸ್ಮಿನ್ ಸಮಯೇ ಇತ್ಯುಕ್ತೆ ಯದಾ ಹನುಮಾನ್ ಮಹೇಂದ್ರಗಿರೇ ಶಿಖರಾತ್ ಆಕಾಶ ಮಾರ್ಗೇ ಪ್ಲವನಂ ಕರ್ತುಂ ಉತ್ಥಿತವಾನ್ ತಸ್ಮಿನ್ ಸಮಯೇ ಸ್ಥ್ಯಂ ಸಹ ಅಭಜತ ವಚಸಾಂ ಅವಿಷಯಂ ವಕ್ತುಂ ಅಶಕ್ಯಂ. ಪಶ್ಯತು ವಕ್ತುಂ ಅಶಕ್ಯಂ ಇತಿ ಉಕ್ತ್ವಾ ಕವಿಃ ಏತಾವತ್ ದೀರ್ಘ ವ್ಯಾಖ್ಯಾನಂ ವಿವರಣಂ ಕರೋತಿ. ವಕ್ತುಂ ಅಶಕ್ಯಂ ವಚನೈಃ ವಾಚಾಮಗೋಚರಂ ಇತಿ ವದಾಮಃ ತಥಾ ವಚನೈಃ ವಕ್ತುಂ ಕೀದೃಶಃ ಸನ್ ದೌಸ್ಥ್ಯಂ ಅಭಜತ ಕೇನ ಕಾರಣೇನ ತಸ್ಯ ದುಸ್ಥಿತಿಃ ಇತ್ಯುಕ್ತೆ ಸಹ ಅಸಮರ್ಥಃ ಜಾತಃ. ಅಕ್ಷಮಃ ಸನ್ ಕ್ಷಮಃ ಇತ್ಯುಕ್ತೆ ಸಮರ್ಥಃ ಅಕ್ಷಮಃ ನ ಸಮರ್ಥಃ. ಕಿಂ ಕರ್ತುಂ ಅಕ್ಷಮಃ ಸೋಢುಂ ಕಿಂ ಸೋಢುಂ ಇದಾನೀಂ ಆರಭ್ಯತೆ ಉದನ್ವದುಲ್ಲಂಘನ ದೃಢತರ ನಿಹಿತಚರಣ ನಿಷ್ಪೀಡನಂ. ಉದನ್ವಾನ್ ಇತ್ಯುಕ್ತೆ ಸಾಗರಃ ಇತಿ ತತ್ರ ಪ್ರಾತಿಪದಿಕಸ್ಯ ಪ್ರಯೋಗಃ ಕೃತಃ. ಕಾರಣಂ ಅತ್ರ ಸಮಾಸಃ ಸಮಸ್ತಪದೇ ಉದನ್ವತಃ ಸಾಗರಸ್ಯ ಉಲ್ಲಂಘನಾಯ ಉಲ್ಲಂಘನ ಸಮಯೇ ಸಾಗರಸ್ಯ ಸಂತರಣಂ ಕರಣೀಯಂ ಕಿಲ ತೇನ ತಸ್ಮಿನ್ ಸಮಯೇ. ದೃಢತರ ನಿಹಿತಚರಣ ಕರಣೌ ದೃಢತೆಯ ಪರ್ವತ ಶಿಖರೇ ಸ್ಥಾಪಿತವಾನ್. ನಿಹಿತ ಇತ್ಯುಕ್ತೆ ಸ್ಥಾಪಿತ. ನಿಹಿತಚರಣಾಭ್ಯಾಂ ಕಿಂ ಅಭವತ್ ಪರ್ವತಸ್ಯ ನಿಷ್ಪೀಡನಂ ಅಭವತ್. ಯಥಾ ವಯಂ ಕಿಮಪಿ ಏಕಂ ಜಂಬೀರಂ ಸ್ವೀಕುರ್ಮಃ ತಸ್ಯ ರಸಃ ಸ್ವೀಕರಣೀಯಃ ಚೇತ್ ಜಂಬೀರಸ್ಯ ನಿಷ್ಪೀಡನಂ ಕುರ್ಮಃ ಚೇದೇವ ರಸಃ ನಿರ್ಗಚ್ಛತಿ ಕಿಲ. ತಥಾ ಪರ್ವತಸ್ಯ ನಿಷ್ಪೀಡನೇನ ತತ್ರ ಕಿಂ ಕಿಂ ಉದ್ಗಚ್ಛತಿ ಕಿಂ ಕಿಂ ನಿರ್ಗಚ್ಛತಿ ಕಿಂ ಸಂಭವತಿ ಇತಿ ಕವಿ ವರ್ಣಯತಿ. ಉದನ್ವತಃ ಉಲ್ಲಂಘನೇ ಉಲ್ಲಂಘನ ಸಮಯೇ ಸ್ಥಾಪಿತ ಚರಣಾಭ್ಯಾಂ ಹನುಮತಾ ಸ್ಥಾಪಿತ ಚರಣಾಭ್ಯಾಂ ಯತ್ ನಿಷ್ಪೀಡನಂ ಜಾತಂ ತದ್ ಸೋಢುಂ ಅಸಮರ್ಥಃ ಸಹ ಮಹೇಂದ್ರಶೈಲಃ ಇತಿ ವದತಿ. ಅಸ್ತು ಕಿಂ ಕೇನ ಕಾರಣೇನ ತತ್ ಸೋಢುಂ ಅಶಕ್ಯಂ ಅಭವತ್ ಕಥಂ ಜ್ಞಾಯತೆ ಸೋಢುಂ ಅಶಕ್ಯಂ ಇತಿ. ಕಶ್ಚನ ಜನ ಅಸ್ತಿ ಸಹ ಕಾಚಿತ್ ಪೀಡಾ ಅಸ್ತಿ ಚಿಂತಯತು ಸಹ ಅತೀವ ವೇದನಾಯಾಮ್ ಅಸ್ತಿ ಕಥಂ ವಯಂ ಜಾನೀಮಃ ಸ ಸೋಢುಂ ನ ಶಕ್ನೋತಿ ತಾಂ ವೇದನಾಂ ಇತಿ. ಏಕಂ ತು ಸಹ ಶಬ್ದಂ ಕುರ್ವನ್ ಭವತಿ ಹಾ ಹೂ ಇತಿ. ದ್ವಿತೀಯಂ ತಸ್ಯ ಸ್ವೇದಃ ಜಾಯತೆ. ತೃತೀಯಂ ಸಹ ವಕ್ತುಮೇವ ನ ಶಕ್ನೋತಿ ಅಶ್ರುಧಾರಾಃ ಪ್ರವಹಂತಿ ಏತತ್ ಸರ್ವಂ ಬಾಹ್ಯ ಚಿಹ್ನಾನಿ ಭವಂತಿ. ತಸ್ಯ ವೇದನಾ ಸೋಢುಂ ನ ಶಕ್ಯ ಇತಿ ಜ್ಞಾತು. ತಥೈವ ಕವಿಃ ಅತ್ರ ಪರ್ವತಂ ಮನುಷ್ಯವತ್ ಉತ್ಪ್ರೇಕ್ಷ್ಯ ವದತಿ ತೇನ ಪರ್ವತಸ್ಯ ಬಾಹ್ಯ ಚಿಹ್ನಂ ದೃಷ್ಟ್ವಾ ಪರ್ವತಸ್ಯ ಕಾ ಗತಿಃ. ಅದು ಕಲ್ಪನಾ ಬಹು ಸುಂದರಿ ಅಸ್ತಿ. ತದ ವಯಂ ಗದ್ಯ ಭಾಗಾನಾಂ ಪಂಕ್ತಿಶಃ ಸ್ವೀಕೃತ್ಯ ಮಂದಂ ಅರ್ಥಂ ಪಶ್ಯಾಮಃ ಚೇತ್ ಸರಳತೆಯ ಅವಗಂತುಂ ಶಕ್ಯತೆ. ದೀರ್ಘ ಕ್ಲಿಷ್ಟ ಸಮಸ್ತ ಪದಾನಿ ಕಶ್ಚನ ಅಪರಿಚಿತ ಪದಾನಿ ಸ್ಯುಃ ಕಿಂತು ಭಾವಂ ಪ್ರಥಮಂ ಅವಗಚ್ಛಾಮಃ. ಪ್ರಥಮಂ ಸಹ ವದತಿ ನಿರ್ಜರಾಃ ಪತಂತಿ ಜಲಪಾತಃ ಭವತಿ ಕಿಲ ವಾಟರ್ ಫಾಲ್ಸ್. ನಿರ್ಜರಾಃ ಯದಾ ಪತಂತಿ ತದ್ ಕಥಂ ದೃಶ್ಯತೆ ಇತ್ಯುಕ್ತೆ ಪರ್ವತಃ ಅಶ್ರೂಣಿ ಮುಂಚತಿ ಇವ ದೃಶ್ಯತೆ ಇತಿ ವದತಿ. ದ್ವಿತೀಯಂ ಸಹ ವದತಿ ಉಪರಿ ಮೇಘಾಃ ಇತಸ್ತತಃ ಡಯಂತೆ ಇತಸ್ತತಃ ಯದಾ ಡಯಂತೆ ತದ್ ದೃಷ್ಟ್ವಾ ಕವಿಃ ಕಿಂ ಚಿಂತಯತಿ ಕವೇಃ ಕಲ್ಪನಾ ಸಹ ವದತಿ ಏತದ್ ಪರ್ವತಸ್ಯ ಶಿಥಿಲಾಃ ಬದ್ಧ ಕೇಶಪಾಶಃ ಭವತಿ ಕಿಲ ತದಿದಾನೀಂ ಶಿಥಿಲಂ ಜಾತಂ ತದ್ ತದಿವ ದೃಶ್ಯತೆ ಮೇಘಾನಾಂ ಸಂಚರಣಂ ಇತಿ ವರ್ಣಯತಿ. ಪ್ರಥಮಂ ಅಶ್ರೂಣಿ ಮುಂಚತಿ ಇತಿ ಉಕ್ತವಾನ್. ದ್ವಿತೀಯಂ ತಸ್ಯ ಕೇಶಪಾಶಾಃ ಶಿಥಿಲಾಃ ಇತಿ ಅಭವನ್ ಇತಿ ಉಕ್ತವಾನ್. ತೃತೀಯಂ ವದತಿ गजाः बहिर्निर्गच्छन्ति किल, बहिरागच्छन्ति, यत्र यत्र सन्ति तत्र समूहतया बहिर् आगच्छन्ति. कारणं भयेन, कम्पमानः पर्वतः भयेन यदा बहिरागच्छन्ति तद् द्रष्टुं कथमस्ति कवेः कल्पना का? कविः वदति पर्वतः एव शोथयुक्तः जातः. श्वयथुः, शोथः इत्युक्ते स्वेलिङ्ग्, पर्वतस्य गात्रे उच्छूनता अभवत्, स्वेल्लिङ्ग् अभवत्, अतः एव सा वेदना सोढुम् अशक्या इति वदति. चतुर्थमस्ति हरिणाः इतस्ततः धावन्ति भयेन. यदा हरिणाः धावन्ति तदा तेषां पादेषु खुराः भवन्ति, शार्ट् क्रास् भवन्ति किल पशूनां, तद् खुरपुटं यदा भूमौ उत्खनति, तत् विदारयति भूमिं, भूमिं तद् स्पृशति किल, तदा धातवः उपरि डयन्ते, मिनरल्स् इति वदामः, धातवः, धातुकणाः उपरि डयन्ते. तान् धातुकणान् दृष्ट्वा किमिति चिन्तयति कविः? कविः वदति ते धातुकणाः सर्वे पाटलवर्णीयाः, रक्तवर्णीयाः भवन्ति. वदति न, एषः पर्वतः पर्वतस्य रक्तप्रवाहः भवति दृष्टिः तत्र. अनन्तरं तत्समये यदा पर्वतः कम्पितः हनुमतः चरणस्थापनेन, तदा कण्ठीरवः इत्युक्ते सिंहः सः उत्थितवान् उच्चैः गर्जनं कृतवान्. तद् कथम् इत्युक्ते पर्वतः एव वेदनां सोढुम् अशक्नुवन् चीत्कारं करोति, उच्चैः शब्दं करोति इति, पर्वतः एव शब्दं करोति इव दृश्यते. अनन्तरम् एतद् पश्यतु, पर्वते कन्दराः भवन्ति, गुहाः भवन्ति, तेभ्यः कन्दरेभ्यः बिलेभ्यः सर्पाः सर्वे बहिरागच्छन्ति, रेप्टैल् सरीसृपाः बहिरागच्छन्ति. ते कथं दृश्यन्ते? कवेः कृते, कवेः कल्पना, सः वदति एते सर्वे पर्वतस्य आन्तरमालाः इव दृश्यन्ते, पर्वतस्य इन्टेस्टैन्स् सर्वं बहिरागतं. यदा नृसिंह अवतारसमये हिरण्यकशिपुं कशिपोः वधं कृत्वा तस्य आन्त्रं सर्वं बहिरानीतवान् किल, तथा सरीसृपान् दृष्ट्वा सः तस्य पर्वतस्य आन्त्रमालाः बहिरागच्छन्ति इति कविः वदति. अनन्तरं तरुशाखाः सर्वे इतस्ततः डयन्ते, पतन्ति च. तद् दृष्ट्वा कविः किं चिन्तयति? ते तरुशाखानां तेषु जलबिन्दवः भवन्ति, कारणं मेघस्य समीपे एव किल अस्ति पर्वते. पर्वते तु मेघः पर्वतं स्पृशन्नेव भवति, अतः तेषां जलबिन्दूनां पतनेन कथं दृश्यते इत्युक्ते समग्रः पर्वतः एव स्वेदेन लिप्तः, स्वेदलिप्तः अस्ति इति दृश्यते इति वर्णनम्. इदानीं सामान्यवर्णनम् अभवत्. एकैकां पङ्क्तिं स्वीकृत्य वयं तत्र विद्यमानपदानि कीदृशानि इति पश्यामः. प्रथमं किमस्ति? पादतलाभ्यां पर्वतस्य निष्पीडनसमये निस्सरन् निर्झरौघतया निरन्तरनिष्पतत् बाष्पवर्षः इव. शेष समस्त सर्वे अपि जलपाताः निर्झराः, वाटर्फाल्स्, निस्सरत् निर्झर इत्युक्ते निस्सरन्तः सन्ति ते निर्झराः. निर्झराणाम् ओघः महान् एव वेगः यदा भवति तदा किं भवति? तद् निरन्तरं पर्वतः एव वेदनां सोढुम् अशक्नुवन् करोति. निष्पतत् बाष्पवर्षः इव, बाष्प इत्युक्ते अश्रु, बाष्पवर्षणमिव तद् भाति इति वदति. एतत् सर्वम् उत्प्रेक्षा इति. अतः एव इव शब्दः भवति सर्वत्र. तद् नास्ति पर्सोनिफिकेशन् आफ् दि मौण्टेन् इति एकम् इमेजिनेशन् स्वीकृत्य तद् कविः एवं पश्यति, उत्प्रेक्षणं करोति. द्वितीया पङ्क्तिः का? इतस्ततः विततजीमूतवृन्दतया शीलः इव. वितत, वितत इत्युक्ते विकीर्ण. वितत जीमूत इत्युक्ते किं? मेघः, मेघवृन्द, मेघमाला, मेघसमूहः. इतस्ततः प्रसृतानां मेघसमूहानां दर्शनेन कथं दृश्यते? पर्वतस्य एव तरलाः केशाः, केशानां बन्धनं मन्दं जातं, शिथिलम् अभवत् इति दृश्यते, इव दृश्यते. विकीर्णाः मेघाः कथम् अत्र भवन्ति इत्युक्ते पाथिलधम्मिल्लः इव. पारिप्लव इत्युक्ते तरल, चञ्चल. निश्चलम् इत्युक्ते न चलति, तस्य विपरीतं. चलत् भवति इतस्ततः, मूवि. परिप्लव धम्मिल्लः, धम्मिल्लः इत्युक्ते बद्धकेशपाशः. बद्धकेशपाशः इदानीं किम् अभवत्? शिथिलम् अभवत्. ततः विकीर्णम् अस्ति इति वर्णयति कविः. अत्र एकैकं पदमपि, सर्वपदानि अपि कदाचित् अस्माभिः ज्ञातानि न भवन्ति. अहं नोट्स् मध्ये पदानाम् अर्थमपि स्थापयामि, अपरिचितपदानाम् अर्थमपि. अत्र सामान्यतया जीमूत इत्युक्ते मेघः, जीमूतवृन्द मेघसमूहः, पारिप्लव इत्युक्ते तरलं, चञ्चलं, शिथिल मन्द अस्ति. धम्मिल्लः इत्युक्ते केशपाशः, बद्धकेशपाशः धम्मिल्लः इति उच्यते. तृतीयबिन्दुः, सन्त्रस्यमानकुञ्जरयूथतया सञ्जातश्वयथुः इव. गजः इति वयं सर्वे जानीमः. सन्त्रस्यमानाः कुञ्जराः, भीताः कुञ्जराः, गजाः, गजानां समूहः. यूथ इत्युक्ते वानरयूथः, गजयूथः, हरिणयूथः. तेषां गजानाम् इतस्ततः धावनेन, सञ्चरणेन, अथवा तेषां ते भीताः तिष्ठन्ति किल, तद् कथं दृश्यते इत्युक्ते सञ्जातश्वयथुः इव. गात्रेषु शोथः, उच्छूनता, स्वेल्लिङ्ग् अभवत् इव दृश्यते श्वयथुः इव. पर्वतगात्रम् उच्छूनं जातम् इव दृश्यते. अस्तु, अग्रिमं हरिणानां धावनं. साध्वस धावमानः हरिणगणः. साध्वस इत्युक्ते भयं, भयेन हरिणगणाः. ते किं कुर्वन्ति? तेषां चरणखरतरखुरकोटिपाटनोद्धूतधातुधूलिपालीपाटलितविकटकटकतया इव. एतत् दीर्घतरवाक्यं. हरिणानां गणः यदा भयेन इतस्ततः धावति, तेषां चरणखर शफः इति वदामः, पशूनां पादे, पादः कथं भवति? तद् किञ्चित् तीक्ष्णं भवति, निशितं भवति, शार्प् भवति. तद् यदा भूमौ स्पृशति, खुराग्रभागः चरणानां चरणखरस्य खुर शफ तस्य अग्रभागः. कोटिः इत्युक्ते गणना अपि कोटिः भवति, लक्षं कोटिः इति. अत्र तद् न, खुरकोटि इत्युक्ते खुरस्य अग्रभागः. पाज़् आफ् एनिमल्स् इति वदामः किल, तस्य अग्रभागः. तेषां पाटनेन, पाटनम् इत्युक्ते भूमेः विदारणं, टेरिङ्ग् इति वदामः, टि ए आर् ऐ एन् जि, टेरिङ्ग्. उत्पाटनम् उत्पाटनम् इति वदामः किल वृक्षस्य उत्पाटनम् तथा उद्धूत उपरि उत्थित किम् उत्थितं भवति धातु धूलिः उत्थिता भवति धातूनां धूलिः मिनरल् पार्टिकल्स् तद् धातवः कथं भवन्ति इत्युक्ते रक्तवर्णीयाः पाटलवर्णीयाः भवन्ति धा धूलि पालि इत्युक्ते पङ्क्तिः एतद् धातूनां धूलिः पङ्क्तिशः एवं उड्डयन्ते तदा पङ्क्तिशः यदा उड्डयन्ते तद् पाटलितवर्णीयं भवति तद् कथं दृश्यते इत्युक्ते विकटकटकतया क्षरितक्षोणितः इव पर्वतस्य पृष्ठभागे रक्तस्रावः इव दृश्यते कारणं धातूनां वर्णः लोहितः पाटलः अतः पर्वतस्य रक्तप्रवाहः भवति इव दृश्यते विकट इत्युक्ते निम्न उन्नत अनिवन् पर्वतभागः निम्नोन्नतः एव भवति किल अतः विकट इति पदस्य प्रयोगः कटकः इत्युक्ते कटिप्रदेशस्य पृष्ठभागः नितम्बः इति विकटकटक क्षरितक्षोणितम् तस्य पर्वतस्य पृष्ठभागतः क्षरितं निःसृतं किं निःसरति किं स्रवति शोणितं रक्तं स्रवति इव दृश्यते वस्तव धातुकणाः एव वस्तुतः किन्तु पश्यति इत्युक्ते पर्वतस्य रक्तस्रावः भवति अश्रुपातः भवति इति उक्तवान् अनन्तरं शरीरे पर्वतस्य गात्रे श्वयथुः शोथः स्वेल्लिङ्ग् अभवत् इति उक्तवान् पुनः किम् उक्तवान् इदानीं वदति रक्तस्रावः भवति रक्तप्रवाहः भवति अतः एव पर्वतः तत्सर्वं सोढुम् अशक्नुवन् कष्टमनुभवति इति अग्रिमं वाक्यमस्ति अत्र पदानि पश्यामः क्षम्यतां पूर्वतनम् इत्युक्ते भयं साध्वसेन भयेन धावमानाः हरिणाः खरतर तीक्ष्णतर निशिततर शार्प् निशित शार्प् एज्ड् इति वदन्ति खरतर खुरकोटिः इत्युक्ते शफः गवाम् अथवा मृगाणां पादाग्रभागः खुरः इति उच्यते पादाग्रभागः पाटनम् इत्युक्ते विदारणं विदारणं टेरिङ्ग् अपार्ट् पाटनम् उद्धूतम् उत्थितम् पाली इत्युक्ते पङ्क्तिः निम्नोन्नत निम्नं च उन्नतं च अनिवन् कटकः इत्युक्ते नितम्बः कट्याः पृष्ठभागः क्षरितः इत्युक्ते स्रवति इति निस्सरति क्षरति इति क्रियापदम् क्षोणितम् इत्युक्ते रक्तम् अस्तु अग्रिमं किं पश्यति कविः तत्क्षणप्रबुद्धकण्ठीरवमुखरितकन्दरतया कृताक्रन्दः इव कण्ठीरवाः गर्जन्ति तेषां गर्जनं पर्वतस्य चीत्कारः इव उत्प्रेक्षते कविः हनुमतः उत्थानसमये पर्वतनिष्पीडनेन सिंहाः जागरिताः यदा सिंहाः जागरिताः ते गर्जन्ति तेषां गर्जनेन गह्वराः एको भवति किल शब्दायन्ते गह्वराः गुहाः ते शब्दायन्ते शब्दं कुर्वन्ति तस्य प्रतिध्वनिः श्रूयते गह्वरेषु सिंहस्य गर्जनस्य प्रतिध्वनिः भवति तद् गह्वराणां शब्दापनं कथं भवति तदां सोढुम् अशक्तस्य पर्वतस्य चीत्कारः इव इति वदति कण्ठीरवः नाम सिंहः तत्क्षणे तस्मिन् समये कण्ठीरव जागरितसिंहः मुखरित इत्युक्ते शब्दायमानः प्राणः कन्दर गह्वरं गुहा इति उच्यते आक्रन्दः इत्युक्ते उच्चैः रोदनं चीत्कारः यदा वेदनां सोढुं न शक्नोति कश्चित् चीत्कारं करोति चीत्करोति तदेव आक्रन्दः उच्चैः क्रन्दते क्रन्दति सः परिसरगह्वर निबिरीस निःसृत सरीसृपतया निर्गलितान्त्रमालः इव परिसरे गह्वराः सन्ति किल पर्वतस्य भागे गिरि गुहाः सन्ति गह्वरा निबिडं सर्पाणां समूहः निर्गच्छति बहिः सर्पाः एवं रज्जूनां बन्धनं भवति इति चिन्तयतु बह्व्यः रज्जवः सर्पाणां निबिडसर्पाणां बहिरागमनं सरीसृपाः इत्युक्ते रेप्टैल्स् निःसृतसरीसृपतया सरीसृपाः तेभ्यः बिलेभ्यः निर्गच्छन्ति अन्तरमालः इव तद् कविः कथम् उत्प्रेक्षते इत्युक्ते निर्गलित आन्त्रमालः आन्त्र इत्युक्ते इन्टेस्टैन्स् चिन्तयतु कल्पनां करोतु पर्वतः कश्चन मनुष्यः तस्य भूमि भूप्रदेशः विदीर्णमस्ति विदीर्णः अस्ति विदीर्णः अस्ति वेदनां सोढुमि तस्य आन्त्रमाला आन्त्राः बहिरागच्छन्ति निर्गलितान्त्रमालः इव बहिरागत इव दृश्यते पर्वतस्य तत्र पदानि सन्ति निबिरीसम् इत्युक्ते निबिडं घनम् नारायणीयकाव्ये अपि सान्द्रावबोधन इति प्रथमपदमेव सान्द्रं घनम् सरीसृपाः सर्पादयः सर्पकुटुम्बे ये ये मृगाः ये ये जन्तवः सन्ति प्रायः सर्वे अपि सरीसृपाः रेप्टैल्स् इति अत्र सर्पाः एव मुख्याः किमर्थं सर्प इति नाम सरीसृपः सर्पन्ति तेषां गतिविशेषः किल सर्पति आन्त्रम् इत्युक्ते इन्टेस्टैन्स् अग्रिमम् अधिका घूर्णमान अत्र धूर्ण नास्ति घूर्णमान तरुविटपकोटि ताडित जलवृन्द स्यन्दित सीकर निकर कोरकिताकारतया समुपजात स्वेदः इव यदा पर्वतः कम्पते वृक्षाः तु केचन वृक्षाः उत्पाटिताः भवन्ति पतन्ति यदा वृक्षाः पतन्ति तदा तेषां शाखाः इतस्ततः डयन्ते किञ्चित् दूरं शाखाः किञ्चित् दूरवत् गत्वा पतन्ति किल तेषां शाखानां घूर्णमान भ्रममाण तरुविटप वृक्षाणां शाखा विटप इत्युक्ते शाखा पुनः अत्र कोटि इत्युक्ते अग्रभागः शाखानाम् अग्रभागः कान् ताडयन्ति मेघान् ताडयन्ति सामान्यतया भूतले विद्यमानाः वृक्षं स्प्रष्टुं न शक्नुवन्ति न पारयन्ति कारणं तद् औन्नत्ये न सन्ति एते वृक्षाः किन्तु पर्वतशिखरे विद्यमानवृक्षाः तु मेघस्पर्शनं प्राप्नुवन्ति एव अतः तदपि अस्मिन् समये यदा पर्वत मेघाः अपि इतस्ततः सञ्चरन्ति वृक्षशाखाः अपि इतस्ततः विकीर्णाः भवन्ति तदा ताडितजलदवृन्द जलदः कः मेघः जलं ददाति इति जलदः ताडितजलदवृन्द मेघसमूहः ताडितः भवति तेन किं भवति यदा तत्र किञ्चित् जलं किञ्चित् हिमम् इव तिष्ठति किन्तु यदा ताडितः भवति तदा किं भवति जलं स्रवति स्यन्दित सीकरनिकर स्यन्दित इत्युक्ते निस्स्यन्दति प्रवहति किं प्रवहति सीकरनिकर सीकर इत्युक्ते जलबिन्दवः सीकर सीकरनिकर जलबिन्दूनां समूहाः पतन्ति ते वृक्षैः ताडित वृक्षाणाम् अग्रभागैः ताडित मेघाः जलबिन्दून् पातयन्ति तद् कविः कथं पश्यति इत्युक्ते कोरकिताकारतया समुपजात स्वेदः इव, ते जलबिन्दवः पर्वतस्य गात्रे स्वेदबिन्दवः इव दृश्यन्ते. कोरकित इत्युक्ते मुकुलित, बड्स् इव. इदानीं पूर्णतया बृहत् न अभवन्, लघु जलबिन्दवः, ते पर्वतस्य गात्रे जलबिन्दवः इव दृश्यन्ते. अत्र विद्यमानपदानि पश्यामः. घूर्णमान, घूर्णमान इत्युक्ते परिभ्रमं, परिभ्रमन्, भ्रमति, घूर्णति, घूर्णमानः, घूर्णते इति. विटपकोटि, विटप इत्युक्ते शाखाग्रभागः, विटपकोटिः, विटप इत्युक्ते शाखा, वृक्षशाखा. जलदवृन्द, मेघसमूहः, मेघनिवहः, समूहः, निवहः, अनन्तरं गणः, वृन्दः, एतत् सर्वं समुच्चयबोधकपदानि. तादृशानि सन्ति समूहः, निवहः, निचयः, निकरः, सन्दोहः, एतत् सर्वं समुच्चयार्थकपदानि. सीकरनिकरः इत्युक्ते जलबिन्दु समूहः. कोरकित, मुकुलित. आकारः इत्युक्ते शरीरम्. आकारः इति बहवः अर्थाः भवन्ति एतस्य. एकं सैज् इति अर्थे, आकारः इत्युक्ते भावः अपि भवति शरीरस्य आकारः. अत्र आकारः इत्युक्ते गात्रं, शरीरम्. यतः वृक्षाग्रैः ताड्यमानमेघानां शीकराः यत् जलबिन्दवः, तद् कथं दृश्यते इत्युक्ते पर्वतस्य गात्रे स्वेदोत्पादः, स्वेदस्य उत्पत्तिः इव दृश्यते. स्वेदः, स्विन्नः पर्वतः, स्वेटिङ्ग् इति अर्थः. अन्तिमं स्फटिकतटोपलपतन दलितकीचकसुषिर सम्मूर्च्छत् पवनभूत्कार गगनतया प्रवर्धमानोर्ध्वश्वासः इव. सः वदति स्फटिकशिखरमस्ति किल, शिखरभागात् एवं यदा भूचालः इव अभवत् यदा आञ्जनेयः तस्य निपीडनं कृतवान् एवं चरणाभ्यां, तदा किम् अभवत्? उपलाः पतन्ति. उपलः इत्युक्ते शिलाखण्डाः, शिलाखण्डानां पतनं भवति पर्वतशिखरात्. उपलपतन, शिलाखण्डपतन. कुतः? स्फटिकतट, तटः इत्युक्ते समुद्रतटः, नदीतटम् इति अपि भवति. पर्वततट इत्युक्ते पर्वतस्य शिखरं. पर्वतस्य शिखरभागात् उपलपतनं, शिलाखण्डानां पतनं भवति. अस्तु, तेन किं भवति? दलितकीचकसुषिर, कीचकाः, कीचकाः इत्युक्ते वंशवृक्षाः, बेम्बू वंशाः दलिताः भवन्ति. वंशानाम् उपरि एतत् शिलाखण्डाः पतन्ति, तेन किं भवति? वंशानां छिद्राणि जायन्ते, वंशानां छिद्राणि भवन्ति. सम्मूर्च्छत् पवन, तत्र सम्मूर्च्छत् पवन इत्युक्ते तत्र पवनः प्रसरति अन्तः, तेषां वंश छिद्रेषु प्रविश्य पुनः बहिर्निस्सरति किल समीरः, पवनः. सम्मूर्च्छत् पवन, तद् कथं श्रूयते इत्युक्ते तस्य भूत्कारः अस्ति किल, पवनस्य प्रवाहः. परिपूरितगगनतया प्रवर्धमानोर्ध्वश्वासः इव, कीचकानां वंशदण्डानां मध्ये छिद्रेषु अन्तः गत्वा बहिर्निर्गमनं यदस्ति पवनस्य, तद् तस्य भूत्कारं श्रुत्वा इत्युक्ते तद् गगनमेव परिपूरयति, तस्य एको सौण्ड्, वेणुवादनं, वेणोः ध्वनि बहु दूरं प्राप्नोति किल, तथा परिपूरितगगनतया प्रवर्धमान ऊर्ध्वश्वासः इव, पर्वतः दीर्घनिःश्वासं करोति, डीप् वदामः किल पर्वतस्य निःश्वासः दीर्घ ऊर्ध्वश्वासः भवति, पर्वतः श्वासोच्छ्वासे कष्टम् अनुभवति इव हीरिङ्ग् इति वदामः, तथा ऊर्ध्वश्वासः इव. अत्र कानि पदानि सन्ति? स्फटिकतट, पर्वतस्य शिखरस्य स्फटिकशिखरं भवति, तत्रत्य उपलाः शिलाः शिलाखण्डाः तेषां पतनं भवति, पतनं. दलित, दलित इत्युक्ते सम्मर्दित, प्रेस्ट् दलित. कीचकसुषिर, कीचकानां रन्ध्रं भवति, वंशदण्डानां दण्डेषु रन्ध्राः सञ्जायन्ते, सुषिराः सञ्जायन्ते. किं भवति? सम्मूर्च्छत् पवनभूत्कारः, तद् प्रवहत्, पवनः अन्तः गत्वा बहिरागच्छति, तेषु छिद्रेषु अन्तः गत्वा पुनः वंशदण्डेभ्यः बहिरागच्छति, तेन भूत्कारशब्दः श्रूयते. सच शब्दः समग्रं गगनं व्याप्नोति, गगनतया व्याप्नोति गगनं आकाशं. तद् कविः कथम् उत्प्रेक्षते इत्युक्ते प्रवर्धमान ऊर्ध्वश्वासः एव, पर्वतस्य श्वासः वेगवत्तरः भवति ऊर्ध्वश्वासः, अतः सः ऊर्ध्वश्वासं स्वीकुर्वन् तिष्ठति इव भाति. पर्वतः एतत् सर्वं सोढुम् अशक्नुवन् असमर्थः जातः इति कविः वर्णयति. एवं किञ्चित् लघु श्लोकः, दीर्घतर गद्यभागं च अद्य वयं दृष्टवन्तः. वयं समापयामः एतस्य इतोपि विवरण टिप्पण्यां भवन्ति, तद् पोस्ट् कुर्मः, तस्य पठनं कुर्वन्तु. अत्र अहम् एकं गृहपाठं वक्तुम् इच्छामि सर्वेभ्यः. कृपया वाल्मीकिसुन्दरकाण्डं स्वीकृत्य प्रथम सर्गं कियत् पर्यन्तम् इति अपि अहं सूचयामि, तद् पठन्तु. अवश्यं तस्य पठनेन अस्माकम् एतस्य काव्यस्य अवगमनमपि सरलं भवति, एक ग्रन्थस्य स्वाध्यायः अपि भवति, तद् अवगन्तुमपि शक्नुमः, तावत् क्लेशाय न भवति. किं वदामि कियत् पर्यन्तम् इति? सुन्दरकाण्डे चत्वारिंशत् पर्यन्तम् नो चेत् न्यूनातिन्यूनं 30 श्लोकान् वा पठित्वा आगच्छन्तु. अस्तु, अस्तु तर्हि अद्य वयं समापयामः. पुनः अग्रिमबुधवासरे अस्मिन्नेव 9 कुत्रचित् गुरुवासरे, क्षम्यतां, कुत्रचित् क्लेशः अस्ति अथवा न अवगच्छन्ति चेत् अवश्यं सूचयन्तु. पाठने अथवा अवगमने क्लेशः अस्ति चेत् अहं किमपि परिवर्तनम् अपेक्षितं, यदि शक्नोमि अवश्यं करोमि. नोट्स् विस्तरेण स्थापयामः श्वः एव. अस्तु, नमस्ते तर्हि, शुभरात्रिः सर्वेषां. शान्तिमन्त्रम् उक्त्वा समापयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्.
ओम शांति
शांति शांति शुभ रात्रि।
शुभ रात्रि।